एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति कतिचित् दिनानाम् अभ्यन्तरे सर्वकारः पूर्णताम् प्राप्स्यति। नेकपा माओवादी केन्द्रस्य भूमि व्यवस्था सहकारी विपन्नता निवारण विभागेन ह्यः आयोजिते सहकारी कर्मिणाम् राष्ट्रिय मेलने प्रधानमन्त्री प्रचण्डः अवोचत् सर्वकारः पूर्णता प्राप्तेः पश्चात् सम्पूर्ण ध्यानम् नवीनार्थिक वर्षस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च निर्माणे केन्द्रीकरिष्यति। प्रधानमन्त्री प्रचण्डः परम्परागत नीति कार्यक्रमाः आयव्ययकम् च देशस्य समस्याः सम्बोध्य अर्थतन्त्रस्य समाह्वयाम् प्रतिकर्तुम् न शक्नुवन्तीति चर्चयन् अभासत। विगतकालतः ईषद् भिन्नाः देशस्य अर्थतन्त्रे गुणात्मक प्रभाव सर्जन क्षमाश्च आयोजनाः आनेतव्यः। प्रधानमन्त्री प्रचण्डः नेपालस्य आत्मनिर्भरस्य अर्थतन्त्रस्य प्रमुखाधार कृषिक्षेत्रमस्तीति हेतोः तत्र राज्येन निवेशनम् केन्द्रीकर्तव्यमिति भासमाणः कृषेः सहकारीकरणस्य माध्यमेनैव आयातः प्रतिस्थापयितुम् आत्मनिर्भरम् अर्थतन्त्रम् सुदृढीकर्तुम् च शक्येते इति प्रत्यपादयत्। सर्वोच्च न्यायालयेन रासपा नाम्नो राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विधस्य विरूद्धे पारपत्र दुरूपयोगस्य न्यायिक प्रकरणस्य असञ्चालन सम्बद्धस्य महान्यायाधिवक्तुः निर्णयस्य विरूद्धे पञ्जीकारिते आदेशाभियाचन निवेदने कारण प्रदर्शनादेशः प्रदत्तो वर्तते। न्यायाधीशस्य हरिफुयालस्य एकल न्यायपीठेन ह्य आदेशाभियाचन निवेदनम् शृण्वता लामिछाने विधस्य विरूद्धे न्यायिक प्रकरणस्य असञ्चलनात्मकस्य निर्णयस्य विषये विपक्षिभ्य महान्यायाधिवक्तृ कार्यालयेभ्य शैत्येभ्य लिखितोत्तरम् अभियाचितमस्ति। रासपा दलस्य सभापतेः लामिछाने विधस्य पारपत्र दुरूपयोगेन सम्बद्धम् न्यायिक प्रकरणम् न चलतीति निगद्य महान्यायाधिवक्त्रा डा दीनमणि पोखरेलेन विहितस्य निर्णयस्य निरसनम् अभियाच्य अधिवक्त्रा युवराज पौडेल सफलेन लामिछाने विधम् विरुध्य गत सोमवासरे आदेशाभियाचन निवेदनम् पञ्जीकारितमासीत्। आदेशाभियाचन निवेदने पारपत्र दुरूपयोगे दण्डनम् दातव्यम् सदपि उन्मुक्तिः दत्तेति उल्लिख्य तस्य निर्णयस्य निरसनमपि अभियाचितम् वर्तते। प्रतिनिधिसभाया नूतन नियमावल्याः पारितीकरणस्य पश्चात् प्रतिनिधिसभायाः कार्यव्यवस्था परामर्श समितिः संघटितास्ति। समितौ सभामुखस्य उपसभामुखस्य संघीय सर्वकारस्य विधि न्याय संसदीय विषय मन्त्रिणः विभिन्न दलानां स्वतन्त्र सांसदानां च प्रतिनिधित्वं भवति। सभामुखस्य देवराज घिमिरे विदस्य उपसभामुखस्य इन्दिरा राणा विधायाः प्रतिनिधिसभायां प्रतिनिधित्वं कुर्वतां दलानां स्वतन्त्र सांसदानां च मध्ये ह्य उपविष्टे उपवेशे धृतायाः सहमतेः अनुसारेण एकविंशति सदस्यीया कार्यव्यवस्था परामर्श समितिः संघटितास्ति। एकविंशति सदस्यायाम् अस्याम् समितौ नेपाली कांग्रेस दलात् षट्, नेकपा एमाले दलात् पञ्च, नेकपा माओवादी केन्द्रात् दौ च जनाः सदस्याः वर्तन्ते। एवमेव राष्ट्रिय स्वतन्त्र, राष्ट्रिय प्रजातन्त्र, जनता समाजवादी नेपाल, नेकपा एकीकृत समाजवादी, जनमत, लोकतान्त्रिक समाजवादी, नागरिकोन्मुक्ति दलेभ्य प्रतिदलम् एक सांसदश्च कार्यव्यवस्था परामर्श समितौ सदस्य वर्तन्ते। एक सांसदयुत दलानाम् स्वतन्त्र सांसदानाम् च पक्षत एको जनः सदस्यः भवति। नेकपा माओवादी केन्द्रेण कोशी प्रदेश नामकरणस्य सम्बन्धे परिचयस्यैव पक्षे स्थातुम् निर्णीतम् वर्तते। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय ह्या उपविष्टेन पदाधिकारीणाम् उपवेशेन कोशी प्रदेश नामकरणस्य सन्दर्भे दलात् दुर्बलता जातेति स्वीकृतम् वर्तते। उपवेशस्य निर्णयम् ज्ञापयन् माओवादी केन्द्रस्य उपाध्यक्ष कृष्णबहादुर महरा अवदत् नामकरणस्य समये परिचयस्य पक्षे दृढता प्रस्तुतेः असामर्थ्यम् दलस्य दौर्बल्यम् अस्तीति उपवेशस्य निष्कर्षो वर्तते। आन्दोलनस्य क्रमे मृतम् जनम् हुतात् मानम् उद्घोष्टुम् सहायताम् प्रदातुम् च सर्वकारः अभियाचितोऽस्तीति असौ अवदत्। उपवेशेन चक्रवृद्धि धनेन पीडितानाम् जनानाम् विषये सर्वकारेण अनुसन्धाय समस्यानाम् समाधानम् अन्वेषणीयम् इति निर्णीतमस्ति। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति देशस्य विश्वस्मिन् विश्वे परिचायकानाम् चलचित्राणाम निर्माणाय चलचित्रकर्मीभिः प्रवर्तनीयम्। नेपाल चलचित्र निर्मातृ संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री शर्मा संख्यातोपि गुणात्मक चलचित्राणाम निर्माणम वर्तमान आवश्यकता स्थिति विचारम व्यक्तवती। मन्त्री शर्मा अवासत राजनीतिक रूपेण नेपाले सम्भूतस्य महतः परिवर्तनस्य उपलब्धिनाञ्च विषयवस्तुनि समावेश्य चलचित्राणाम निर्माणम विधेयम्। सर्वकारस्य प्रवक्ता च संचार मन्त्री शर्मा चलचित्र क्षेत्रस्य विकासाय नीतिगत समस्यानां समाधानाय सर्वकारः तत्परोऽस्ति। सम्प्रति आयव्ययक निर्माणाय सर्वकारस्य ध्यानं केन्द्रितम् अस्तीति च कारणेन चलचित्र क्षेत्रस्य विकासाय तत्कालं विधातव्यान् विषयान् आयव्ययके समावेष्टुं परामर्श प्रदानाय चलचित्रकर्मिणः अनुरुद्ध भवती। कार्यक्रमे नेपाल चलचित्र निर्मातृ संघस्य अध्यक्ष नवल खड्का चलचित्र क्षेत्रस्य विकासाय नूतन चलचित्राधिनियमस्य क्रियान्वयनम् आवश्यकमस्ति, एतदर्थं सर्वकारः अग्रे वर्धिष्यते इति विश्वासम् अभिव्यनक। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः समान विचारवद्भिः दलैसह सहकार्याय एकतायै च स्वस्य दलं तत्परमस्तीति भासते। एकीकृत समाजवादी दलस्य प्रचार विभागेन ह्य काष्ठमण्डपे आयोजितायां सम्पादकैः सह अन्तरक्रियायाम् अध्यक्षो नेपालः स्वस्य दलं संविधानस्य रक्षायाः सुशासनस्य च पक्षधरैः समान विचारवद्भिः दलैः सह सहकार्याय एकतायै च तत्परमस्ति परम् कस्मिंचित् दले स्वस्य दलं विलयं न भविष्यतीति उदैरयत। अध्यक्षो नेपाल जनतायां विकास सुशासनयोः अनुभवनत्वेन कार्यं कर्तुम् असमर्थं सद् व्यवस्थायामेव प्रश्नस्य उद्भावनं सम्भवतीत्यत्र दलैः सावधानैर्भाव्यमिति च विचारं व्यक्तवान्। अध्यक्षो नेपाल पूर्वम् एकवारम् असफलीभूतायाः व्यवस्थायाः पक्षपोषणं पूर्वं परीक्षिताभिः व्यक्तिभिः वर्तमान व्यवस्थायां प्रश्नोत्तर थापनञ्च अनुचितमस्तीति धारणां व्यक्तवान्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति राष्ट्रे विकासं समृद्धिं स्थायित्वञ्च एमाले दलमेव ददाति। बारा जनपदस्य महागढ़ी माई नगरपालिकायाः बरियारपुरस्थाने पूर्वेद्युः आयोजिते कार्यक्रमे अध्यक्ष ओली एमाले दलस्य दुर्बलीकरणस्य दुराशयेन वर्तमानं गठबन्धनं निर्मितमिति आरोपयत्। निर्वाचन आयोगेन आगामिनो वैशाख मासस्य दशमे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यस्य उपनिर्वाचनस्य प्रयोजनाय निर्वाचने प्रत्याशिना विधातव्यस्य व्ययस्य अधिकतम सीमा निर्धारिता वर्तते। आयोगस्य ह्य उपविष्टेन उपवेशेन उपनिर्वाचनस्य प्रयोजनाय गताश्विन मासस्य एकत्रिंशे दिवसे नेपाल राजपत्रे उल्लिखितस्य विवरणस्य अनुसारेणैव चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य च कृते प्रतिक्षेत्रम् एकोनत्रिंशतो लक्षाणां तनौ जनपदस्य प्रथम निर्वाचन क्षेत्रस्य कृते एकत्रिंशतो लक्षाणां च रूप्यकाणां व्ययीकरणार्हा अधिकतम सीमा निर्धारितेति प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। आयोगेन निर्धारितायाः व्ययस्य सीमायाः अभ्यन्तरे संस्थाय निर्वाचने व्ययीकर्तुं निर्वाचन व्ययस्य विवरणं च प्रत्याशिना प्रत्याशिनः प्रतिनिधिना वा निर्वाचन परिणामस्य घोषणायाः दिनांकतः पञ्चत्रिंशतो दिनानाम् अभ्यन्तरे सम्बद्ध जनपद निर्वाचन कार्यालय प्रस्तोतुं च आयोगेन निर्णीतमिति च प्रवक्ता पौडेलः प्रावोचत्। संख्वा सभा जनपदस्य उत्तर क्षेत्रे चीनदेशेन सम्पृक्तं किमाथाङ्का सीमा प्रवेशबिन्दुं सञ्चालयितुं प्रधानमन्त्रिणे पुष्पकमलदाहाल प्रचण्डाय ज्ञापनपत्रम् अर्पितमस्ति। कोरोना महामार्या कारणेन वर्षत्रयात् पिदापितं किमाथाङ्का सीमा प्रवेशबिन्दुं सञ्चालयितुं ह्य प्रधानमन्त्रिणे प्रचण्डाय ज्ञापनपत्रम् अर्पितमिति भोटखोला ग्रामपालिकाया अध्यक्ष वाङ छोदार भोट ज्ञापितवान् इति समाचाराः।